सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः अस्तु का वदति
अहं वदामि भगिनि
अस्तु भगिनि
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्साक्षात् गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः कृष्णो रक्षतु नः कृष्णो रक्षतु न जगत्त्रयगुरुः कृष्णं नमस्याम्यहं कृष्णेनामर शत्रवो विनिहिताः कृष्णाय तुभ्यं नमः कृष्णादेवसमुत्थितं जगदिदं कृष्णस्य दासोऽस्यहं कृष्णे तिष्ठति सर्वमेतदखिलं हे कृष्ण रक्षस्व माम्
धन्यवादः भगिनि. एकः एव विनिहत हत इत्युक्ते मारयति विनिहत धन्यवादः भगिनि. अद्यतन सुभाषितम् एवम् अस्ति. एतत् सुभाषितं महाभारते युद्धार्थं सर्वे सिद्धाः सन्ति तस्मिन् समये विदुरः वदति. सो विदुरनीति इति सङ्ग्रहणम् अस्ति, ततः स्वीकृतं सुभाषितम् एतत्. यस्य कृतं न जानन्ति मन्त्रं वा मन्त्रितं परे यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे कृतमेवास्य जानन्ति स वै पण्डित उच्यते कृतमेवास्य जानन्ति स वै पण्डित उच्यते. सो अत्र किमस्ति इत्युक्ते कृत्यम् इत्युक्ते कार्यं, यस्य कार्यम् अन्यजनाः न जानन्ति, यस्य कार्यम् अन्यजनाः न जानन्ति तस्य यस्य चिन्तनम् अथवा किं कर्तव्यम् इत्युक्ते योजना, किम् अग्रे किं करोति तस्य चिन्तनं किं किं कर्तुम् उद्युक्तः अस्ति इति तादृशम् अन्यजनाः न जानन्ति. यस्य कार्यं वा चिन्तनं वा योजनां वा किं कर्तव्यम् इति अन्यजनाः न जानन्ति, परन्तु अग्रे यत् कार्यं सः कृतवान् तत् दृष्ट्वा एव अहा एवम् एवमेव सः कृतवान् वा इति, तादृशं यः अस्ति सः एव वै इत्युक्ते एव सः एव बुद्धिमान् अस्ति इति इति विदुरः बोधयति, अन्यान् बोधयति. अन्यरीत्या वदामः चेत् यस्य कार्यं चिन्तनम् अथवा अग्रे किं कर्तव्यं किं योजना का योजना अस्ति इति अन्यजनाः न जानन्ति, इत्युक्ते यः एवं करोति सः सर्वदा न वदति अहम् एवं करोमि अहम् एवं करोमि इति, सा न वदति अथवा सः न वदति, परन्तु कार्यं दृष्ट्वा अह एवमेव कृतवान् इति ये जानन्ति सः एव पण्डितः. अन्ये जनाः तादृशं जानन्ति, यस्य न यस्य कार्यं वा योजना वा न जानीमः सः एव पण्डितः इति. अन्यरीत्या वदामः चेत् महापुरुषाः इत्युक्ते बुद्धिमन्तः, बुद्धिमन्तः जनाः किं कुर्वन्ति इति न वदन्ति, तेषां चिन्तनादिकं किम् इति न ज्ञायते, तेषां क्रमः अपि न ज्ञायते, कीदृशक्रमेण सोपानेन कार्यं कुर्वन्ति इति तादृशमपि न जानीमः. परन्तु कार्यस्य अनन्तरं फलं भवति, तत् फलं दृष्ट्वा एव तेषां कार्यम् अथवा कृतं ज्ञायते, ते किं कृतवन्तः इति फलस्य दर्शनानन्तरं ज्ञायते. सः एव महापुरुषाः इत्युक्ते महापुरुषाः इव भवामः कदा युद्धसमये. किमर्थम् इत्युक्ते वैरिणः अस्माकं कार्यं जानन्ति चेत् ते अपि अन्यरीत्या कार्यं कर्तुं शक्नुवन्ति, तादृशं मा दर्शयतु इति सुभाषितम् अस्ति. प्रश्नः अस्ति वा अत्र?
नमस्ते भगिनि.
नमस्ते भगिनि. अस्तु तर्हि स्वागतं भगिनि. सो अग्रे गच्छामः तर्हि. अस्तु, कथायाः नाम अस्ति देशभक्तिः इति. अस्तु, अधस्तात् गच्छामः. सविता भगिनी पठति वा कृपया.
आं भगिनि. दिस् डेट् ऐ काण्ट् टेल् भगिनि. 1960.
सो अत्र डेट् इति अस्ति चेत् वामतः पठतु, नो चेत् दक्षिणतः. वामतः पठामः चेत् एकसहस्र, प्रयत्नं करोतु भगिनि, एकसहस्र
एकसहस्र षट्
नवशत
एकसहस्र नवशत
टु टुगेदर् पञ्च षष्टि. सो अतः एकसहस्र नवशत पञ्चषष्टि तमः क्रिस्ताब्दः.
तमः
सो वि तम इफ् इट् इस् आफ्टर् 20 अण्ड् आफ्टर्. सो एकसहस्र नवशत पञ्चषष्टितमः क्रिस्ताब्दः. सो अत्र क्रिस्ताब्दः इति अस्ति. सो अत्र क्रिस्ताब्दे इति अस्ति चेत् तमे इति भवति. क्रिस्ताब्दे तमे क्रिस्ताब्दे इति भवति. अत्र तमः क्रिस्ताब्दः.
दट् इस् एडि इसन्ट् इट् भगिनि? एडि 1965
एडि.
क्रिस्ताब्दः रघु रघुवीरसिंहः कश्चित् सैनिकः. रघुवीरसिंहाय एकं पत्रम् आगतम्. सिंहः पत्रं पठितवान्. अनन्तरं रघुवीरसिंहः सेनाधिकारिणः समीपं गतवान्. सिंहः: आर्य नमस्कारः. अधिकारी: भो सिंह आगच्छतु, उपविशतु. भवान् किमर्थम् आगतवान्? सिंह:
अस्तु भगिनि.
आम् भगिनि. रघुवीरसिंह नामकः एकः सैनिकः अस्ति. भारत पाकिस्तान् युद्धमध्ये अहं चिन्तितवती भगिनि.
आं भगिनि, सम्यक्.
रघुवीरसिंहः एकं पत्रम् आगतवान्. सिंहः पत्रं पठनम् अनन्तरं सेनाधिकारिण समीपं गतवान्. सिंहः सेनाधिकारिण नमस्कारं कृतवान्. अधिकारी भवान् किमर्थम् आगतवान् इति पृच्छतः, रघुवीरसिंहे पृच्छतः.
सम्यक् भगिनि, पृष्टवान्. सो अत्र अन्यत् किमपि अपि वक्तुम् इच्छामि. सो अत्र वामतः 1965 क्रिस्ताब्दः, परन्तु दक्षिणतः पठामः चेत् पञ्चषष्ट्यधिक नवशताधिक एकसहस्रतमः, लैक् देट् इट् विल् बि लिटिल् बै लिटिल् So instead of adhika, you can also have uttara, like in 108 Namavali we say, right? Ashtotra.
Ashtotra Shata Namavali.
So we say, so that is uttara. Pancha Shashti, instead of adhika, we say uttara. Pancha Shashtotra. नवशतोत्तर एकसहस्र. सो यु से लिटिल् बै लिटिल्, नाट् अ प्राब्लम्. पञ्च, सो दिस् इस् षष्टि, षष्टोत्तर
नवशतोत्तर
नवशतोत्तर
एकसहस्र क्रिस्ताब्दः
एकसहस्रतमः क्रिस्ताब्दः.
ओ अगेन् तमः, ओके
तमः तमः विनि
ओके
अस्तु अवगतम्. धन्यवादः. अस्तु अग्रे सागरी भगिनी पठितुम् इच्छति वा?
आं भगिनि, विलम्बेन आगच्छति. कुत्र
एकनिमिषं सागरी भगिनी, अहं सन्ध्या भगिनीं दृष्टवती. सन्ध्या भगिनी पठतु अग्रे. अस्तु सो अत्र भगिनी सिंहः वदति मम विवाहः निश्चितः अस्ति इति.
सिंहः मम विवाहः निश्चितः अस्ति, अतः एकमासपर्यन्तं विरामम् इच्छामि. अधिकारी महान् सन्तोषः, भवतः विवाहः निर्विघ्नं सम्पन्नः भवतु. एकमासपर्यन्तं विरामस्य अनुमतिं ददामि. शुभं भवतु.
उत्तमम्. अत्र बहु सुलभः खलु? अन्य
सिंहः उक्तवान् मम विवाहः निश्चितः अस्ति, अतः एकमासः I don't know how to simplify it, Bhagini. I'm saying
it's very simple, Bhagini. सरलभाषया एव लिखितम् अस्ति.
अहं
एकमासं
मम गृहं गच्छामि, अतः एकमासः विरामम् इच्छामि, कृपया ददातु इति.
सम्यक्, तावदेव. अधिकारी किम् उक्तवान्?
अधिकारी उक्तवान् अहं महान् सन्तोषः अस्मि, भवतः विवाहः उत्तमेन सम्पन्नं भवति इति अहम् इच्छामि, भवतु इति अहम् इच्छामि. अतः अहं
भवान् गच्छतु, भवान् गच्छतु,
भवान् गच्छतु. फोर् यू वुड् बी तुभ्यम्, अहं तुभ्यं विरामं ददामि.
उत्तमम्.
एकमासः पर्यन्तं भवान् आगच्छतु.
अस्तु, सम्यक्. सो अत्र एकमासः मास्तु, एकमासपर्यन्तम् इति.
एकमासपर्यन्तं. धन्यवादः भगिनि.
धन्यवादः. सन्तुष्टः अस्मि, सन्तुष्टः.
नाट् सन्तोषः, सन्तुष्टः.
अहं सन्तोषम् अनुभवामि, अहं सन्तुष्टः अस्मि.
सन्तुष्टः,
मम सन्तोषः अस्ति. सो त्री डिफ्रेण्ट् वेस्. मम सन्तोषः अस्ति, अहं सन्तोषम् अनुभवामि, अहं सन्तुष्टः अस्मि.
सन्तोषः इस् षष्टि विभक्ति.
सन्तोषः इस् हेपिनेस्. ऐ हेव् हेपिनेस्. मम सन्तोषः अस्ति.
सो इस् दट् षष्टि विभक्ति भगिनि?
वेन् इट् सन्तोषः यु हेव् टु यूस् षष्टि.
ओके.
ऐ हेव् हेपिनेस्, दट् इस् हौ इट् इस् सेड् इन् संस्कृतं. मम सन्तोषः अस्ति.
मम सन्तोषः
अस्ति. सो यः
अहं सन्तुष्टः अस्मि, सन्तोषः अस्ति. ओके.
मम सन्तोषः अस्ति, अहं सन्तोषम् अनुभवामि.
अस्तु भगिनि, बहवः धन्यवादः.
धन्यवादः. अस्तु, या विलम्बेन आगच्छति, आगतवती, अवगतं वा इतोपि किम् अभवत् इति? रघुवीरसिंहः. उत्तमम्. अस्तु अस्तु, अग्रे भगिनी पठतु. सागरी भगिनी. सागरी भगिनी पठितुम् इच्छति वा?
क्षम्यतां भगिनि, अहं म्यूट् मध्ये पठितवती.
तथैव चिन्तितवती अहम्. अस्तु.
सिंहः अनुगृहीतोऽस्मि. रघुबीरसिंहः स्वगृहम् आगतवान्. सिंहस्य आगमनेन सर्वेषां सन्तोषः जातः. विवाहपत्रिका अपि मुद्रिता. इतः सप्तदिनानन्तरं विवाहः.
अस्तु भगिनि, वदतु.
अहम् अनुगृहीतोऽस्मि न अवगच्छामि भगिनि.
अस्तु, अत्र अहम् अनुगृहीतः अस्मि. वयं वदामः खलु अनुग्रहं ददात्, अनुग्रहं, भगवतः अनुग्रहं, तादृशं श्रुतवन्तः खलु वयम्. अनुग्रहम् अनुग्रहम् इत्युक्ते ब्लेस्सिङ्ग्स्. अनुग्रहं. सो अत्र अनुग्रहः इस् द मूलपदं, लैक् सन्तोषः, सन्तोषः इति. सो अत्र तस्य अधिकारी एतादृश उत्तमवाक्यम् उक्तवान्, शुभं भवतु, निर्विघ्नं सम्पन्नः भवतु इति. तादृश अनुग्रहवाक्यानि उक्तवान्. अतः सः सिंहः वदति, अहम् अनुगृहीतः अस्मि. ऐ एम् ब्लेस्ड्. अहं सन्तुष्टः अस्मि. तादृशपदम्. अहं सन्तुष्टः अस्मि. अहम् अनुगृहीतः अस्मि. अत्र सन्धि भवति. अनुगृहीतः इति विसर्गः अस्ति. विसर्गः प्रथमम् उकारम् अस्ति, अनन्तरम् ओकार, अनन्तरम् अत्र अवग्रहचिह्नम् अस्ति. सो त्री डिफ्रेण्ट् सन्धि. सो अनुगृहीतो अस्मि. हव् यु हर्ड् अहं धन्योऽस्मि?
आं भगिनि.
अत्र अपि तथा एव. धन्याः अस्मि. धन्याः बिकेम् धन्यो. And then, Danyosmi. Pullinge, Danyosmi. Trilinge, Danyasmi. Tadrisha padam. Anugrihitosmi. I am blessed.
Bhagini, Sandarbhe, Singha, aham Danyosmi uktavan, yadi uktavan, tad samyak asti, kalu?
Amama. धन्योऽस्मि. साधारणतया धन्य इति दृष्टव पश्यामः चेत् वयं अट्लीस्ट् अहं चिन्तितवती थेङ्क्फुल् इति. ऐ थेङ्क् यु, धन्यवादः इति. परन्तु कोशे दृष्ट पश्यामः चेत् तस्य पदं, तस्य अर्थः अस्ति लैक् ऐ एम् ऐ फील् आस्पिशियस् इति. तादृश ऐ फील् ब्लेस् तादृश अर्थे एव अस्ति. परन्तु साधारणतया तथा एव. सो अनुग्रहवाक्यं दृष्टवान्, अतः अहम् अनुगृहीतो अस्मि. ऐ फील् ब्लेस्ड्. धन्यास्मि.
कृतज्ञोऽस्मि इति किं भगिनि?
कृतज्ञोऽस्मि सि कृतज्ञः. सो ज्ञः इति वदामः ही हू नोस् इति अर्थे. कृतज्ञ मीन्स् ऐ अप्रिशियेट् वाट् यु डिड् लैक् दट्. यत् यत् कृतं तत् अहं जानामि. ऐ रेकग्नैस् वाट् यु डिड्. सो ऐ फील् नाट् ओब्लैज्. ऐ अप्रिशियेट् वाट् यु डिड् इति अर्थे. यत् यत् कृतं तत्
अन्यान् वदति वा एवं?
किं भगिनि?
कृतज्ञोऽस्मि इति सः अन्यान् वदति वा स्वयमेव वदति वा भगिनि?
स्वयमेव. कृतज्ञोऽस्मि मीन्स् ऐ अप्रिशियेट् वाट् यु डिड् इति तादृशम्.
ओ धन्यवादः.
तादृश अर्थे. अस्तु भगिनि, अग्रे पठ.
रघुवीरसिंहः तस्य गृहं गतवान्. रघुवीरसिंहः दृष्ट्वा सर्वेषां सन्तोषः अनुभवन्ति.
सर्वे सन्तोषम् अनुभवन्ति.
विवाहपत्रिका, ऐ डोण्ट् नो हौ टु से दिस् एनी सिम्पल्. मुद्रिका इस् आल्रेडि प्रिण्टेड् आर्
प्रिण्टेड्
सिद्धा इति वदामः भगिनि.
अस्तु.
विवाहपत्रिका मुद्रिता अस्ति. विवाह भवितुं सप्त दिनान् अस्ति.
सप्तदिनानि सन्ति. उत्तमं भगिनि, धन्यवादः. अत्र अन्य किमपि वक्तुम् इच्छामि. सो अत्र आगमनेन वयं दृष्टवन्तः खलु, विभज्य प्रयोगः, भाववाचकपदं, सो अत्र तस्य उपयोगः अस्ति आगमनेन, कस्य आगमनेन, सिंहस्य. सो अत्र भाववाचकपदमस्ति चेत् षष्टिविभक्ति भवति. सिंहस्य आगमनेन अत्र अपि पश्यन्तु, सर्वेषां सन्तोषः जातः. सर्वेषाम् इति षष्टि बहुवचनं. सर्वेषां सन्तोषः जातः अथवा सर्वे सन्तोषम् अनुभूतवन्तः. सर्वे सन्तुष्टाः सन्ति इति त्रिविधम् अस्ति. सो अत्र विवाहपत्रिका अपि मुद्रिता इति कर्मणि प्रयोगे अस्ति. वास् प्रिण्टेड् इति विवाहपत्रिका वास् प्रिण्टेड्
कर्तरी प्रयोगं वक्तुं शक्नु, कृपया वदतु.
वदतु भगिनि, भवती एव वदतु. सो अत्र विवाहपत्रिका इति प्रथमा विभक्ति, द्वितीया
एकनिमिषं भगिनि, अहं म्यूट् मध्ये गच्छामि. कन्स्ट्रक्षन् गोयिङ्ग् आन्, लाट् आफ़् नोय्स्.
अस्तु अस्तु. विवाहपत्रिकां मुद्रितवन्तः जनाः, लैक् दट्. विवाहपत्रिकायाः मुद्रणं कृतवन्तः, तादृशं तादृशं भवति. अस्तु, लता भगिनी अग्रे.
आं भगिनि, प्रातःकालः दिनपत्रिका आगता. कट्टप्रदेशे पाकिस्तानस्य आक्रमणम् इति, कार्गिल् प्रदेशे अपि पाकिस्तानस्य आक्रमणम् इति च पत्रिकायां वार्ता मुद्रिता अस्ति. रघुवीरसिंहः पत्रिकां पठितवान्. तत्क्षणे एव पेटिकायां वस्त्राणि वस्तूनि च स्थापितवान्. अनन्तरं मातापितृसमीपं गतवान्. प्रातःकालः वार्तापत्रं वार्तापत्रम् आल्सो न्यूस् पेपर् भगिनि.
आम् आम्, दिनपत्रिका वार्तापत्रिका.
भगिन्याः ध्वनिः न श्रूयते भगिनि.
भगिनि किञ्चित् उच्चैः वदतु अथवा.
कच्छप्रदेशे इदानीं सम्यक् भगिनि?
आम् आं भगिनि, आम्.
कच्छप्रदेशे, कार्गिल् प्रदेशे अपि पाकिस्तानस्य आक्रमणम् इति पत्रिकायां वार्ता अस्ति. रघुवीरसिंहः तत् वार्तां दृष्ट्वा तत्क्षणे एव पेटिकायां वस्त्राणि वस्तूनि सर्वं स्थापितवान्. अनन्तरं मातापितृसमीपं गतवान्.
अस्तु. सो अत्र अपि धन्यवादः भगिनि. अत्र अपि कर्मणि प्रयोग, दिनपत्रिका आगता, तादृशं दिनपत्रिका आगता अथवा दिनपत्रिकां आनीतवान् तादृशं तादृशं भवति. अत्रापि वार्ता मुद्रिता आसीत्, वार्ता अस्ति, वार्तायाः मुद्रणम् अस्ति. सो अत्र अवगच्छन्ति इति मन्ये वस्तूनि च स्थापितवान्, अनन्तरं मातापितृसमीपं गतवान्. सो अत्र समस्तपदम् इति पूर्वं ज्ञातवन्तः वयं, तादृशपदम् एतत्. सो अत्र गमनक्रिया अस्ति चेत् समीपं गतवान्, गमनक्रिया नास्ति चेत् समीपे अस्ति, समीपे अस्ति, समीपे समीपे अस्ति परन्तु समीपं गतवान् इति भवति. मातापितृसमीपं गतवान् इति अस्ति. अस्तु, जयश्री भगिनी अग्रे.
आं भगिनि. सिंहः अम्बा भारतस्य उपरि पाकिस्तानस्य आक्रमणं जातम्. अहं युद्धार्थं गच्छामि. अम्बा वत्स, भवतः विवाहार्थं सर्वं सिद्धम् अस्ति. मुहूर्तः अपि निश्चितः. सप्तदिनानाम् अनन्तरं विवाहः भविष्यति. विवाहानन्तरं गच्छतु. इदानीं प्रयाणं मास्तु.
अस्तु भगिनि.
सिंहः तस्य मात्रस्य समीपे गत्वा भाषितवान्. अम्बा अहं अहं युद्धार्थं गच्छामि. भारतस्य पाकिस्तानः भारते आक्रमणं कृतवान्. इत्यर्थम् अहं युद्धार्थं गच्छामि इति उक्तवान्. तस्य माता वदति, वत्स, भवतः विवाहः सर्वः सिद्धिम् अपि अस्ति. मुहूर्तम् अनन्तरे विवाहानन्तरे गच्छतु इति.
उत्तमं. विवाहानन्तरं गच्छतु इति सः मातुः समीपं, मातुः षष्ठी अस्ति, मातुः समीपं गतवान्. मातुः समीपं, पितुः समीपं, तादृशं. सम्यक् सम्यक् भगिनि. इदानीं मा गच्छतु. अस्तु, अम्ब पठति वा? धन्यवादः भगिनि.
सिंहः अम्ब, देशार्चनम् आद्यं कर्तव्यं, विलम्बः मास्तु. कृपया आशीर्वदिन्
आशीर्वादेन
आशीर्वादेन
अनुगृह्णातु. अनुगृह् इत्युक्ते न न अस्तु, अग्रे अपि पठतु. अम्ब
अम्ब, पुत्र चिरं जीवतु, विजयी भवतु. रघु मातापितरौ नमस्कृतवान्. शीघ्रातिशीघ्रं युद्धार्थं प्रयाणं कृतवान् च.
अम्ब पर्याप्तम्. अम्ब एवम् एवं वदतु.
अम्ब, देशारक्षणम् आद्यं
रक्षणं देशरक्षणं
देशरक्षणम् आद्यं कर्तव्यम्. अम्ब अम्ब, देशरक्षणम् अमारा कर्तव्यं
कर्तव्यं करणीय. उत्तम, विलम्बः न करणीयम्. उत्तम.
कृपया आशीर्वादं करोतु.
उत्तम, आशीर्वादं करोतु. अस्तु, अम्ब किं वदति?
पुत्र चिरं जीवतु, विजयी भवतु. रघुवीरः मातापितरौ नमस्कृतवान्.
तत् मास्तु अम्ब, तत् मास्तु. चिरं जीवतु इत्युक्ते किं? चिरं जीवतु,
दीर्घायुष्
दीर्घायुष्मानुभव. उत्तम, दीर्घायुष्मानुभव, विजयी भवतु इति. अस्तु, धन्यवादः अम्ब. सो अत्र आद्यम् इत्युक्ते निश्चयेन, इदानीम् इति, तादृशम्. देशरक्षणं सम्यक् आशीर्वादेन अनुगृह्णात् सो दिस् इस् हौ वी से अनुगृह्णात् इति अनुग्रहं ददातु केन केन अनुग्रहणम् अनुग्रहम् इत्युक्ते आशीर्वादेन अनुगृह्णातु इति चिरम् इत्युक्ते चिरङ्कालम् इत्युक्ते बहुकालं वयं वदामः खलु चिरञ्जीवी इत्युक्ते बहुकालं जीवनं जीवति चिरञ्जीवी इति विजयी भवतु जयं प्राप्नोतु इति उत्तमम् अस्तु अग्रे गोपिका भगिनी
आं भगिनि रघुवीरः मातापितरौ नमस्कृतवान् शीघ्रातिशीघ्रं युद्धार्थं प्रयाणं कृतवान् च स्वदेशरक्षणं प्रधानं स्वसुखं गौणम् इति यः चिन्तयति सः एव देशभक्ति भक्तः रघुवीरः स्वमातापितरौ नमस्कृतवान् नमस्कृत्य सः शीघ्रातिशीघ्रं युद्धार्थं प्रयाणम् आरम्भं कृतवान् च स्वदेशरक्षणं प्रधानं मम स्वदेश रक्षणमेव प्रधानं मम यः स्वसुखं न यः स्वसुखस्य प्राधान्यं न ददाति सः एव देशभक्तः इति कथा
सम्यक् सो अवगच्छन्ति खलु सर्वे शीघ्रम् अतिशीघ्रं गौणं गौणम् इत्युक्ते प्राधान्यं नास्ति किञ्चित् न्यूनप्राधान्यम् एव गौणम् इति अस्तु तर्हि अस्तु भगिनि
भगिनी अहं किञ्चित् वक्तुम् इच्छामि
वदतु भगिनि वदतु निश्चयेन वदतु
इदं कथा बहु उत्तमम् अस्ति भगिनी अपि च अद्य समुचितमपि अस्ति किमर्थम् अद्य विजयदिवसम् अस्ति भगिनि
विजयदिवसः अद्य
पञ्चाशत्वर्षाणि पूर्वे अद्य पाकिस्तानस्य सैन्यं भारतं प्रपन्नं सन्ति सरेण्डर्ड् ऐ डोण्ट् नो इफ् ऐ एम् यूसिङ्ग् द राइट्
निश्चयेन एवं
बाङ्ग्लादेशस्य स्वतन्त्रयुद्धम् अस्ति
ओ उत्तमं
स्वतन्त्रतायुद्धम् अद्य पञ्चाशत्वर्षेण पूर्व वर्षाणि पूर्व
उत्तमम्
अभवत्
वेरि अप्रोप्रियेट् कथा एव
भगिनि
कथा उच्चकथा धन्यवादः भगिनि
What happened to Raghubir Singh? Nobody knows, Bhagini. He got martyred or he came back. Nobody knows.
Bhagini, there were so many Raghubir Singhs who I have witnessed as a little child that I thought I must share. We used to be in Dehradun and we saw all the wounded soldiers during that war. Volunteer in the hospitals. My parents used to volunteer and I just used to accompany them. So much of sacrifice has happened, Bhagini, in that war by our soldiers. So it is extremely nice that you chose this story today. Very, very appropriate, Bhagini.
No, Bhagini, I didn't choose. It just came. This was the next story. That's all, Bhagini. I cannot take any credit for it.
Nice story, Bhagini. That day, surrendered. 97,000, Bhagini. Big achievement for the Indian Army.
Wonderful.
This very day, exactly 50 years back.
Great, Bhagini. Good. Thank you for sharing this information.
Thank you for allowing me to, Bhagini.
Of course, Bhagini. Of course. Nischayen. Anya, kimapi vaktum icchanti va? Copy? अस्तु तर्हि पुस्तकं प्रति गच्छामः पुस्तकम् अस्ति गीतासोपानम् एवं वयं कृतवन्तः खलु एतत् कोष्टकं सत्र त्वं युवां यूयम् अपि च अहम् आवां वयम् उपयुज्य लिखामि लिखावः लिखामः लिखसि लिखतः लिखत त्वं युवां यूयम् एतत् वयं दृष्टवन्तः पूर्वमेव इदानीन्तनविषयः अस्ति कथा कथा अस्ति चेत् कथां द्वितीया विभक्तिः खलु पाठः अस्ति द्वितीया विभक्ति द्वितीया विभक्ति इत्युक्ते कथं भवति रूपाणि एवं रामं रामौ रामान् हरिं हरी हरीन् हरीन् सर्वत्र नकारः अस्ति पुल्लिङ्गे सर्वत्र नकारः द्विवचने रामौ इति अस्ति हरिः हरी गुरुः गुरु ऋकारान्तपदं कर्तारौ आ भवति कर्ता धातुतः नामपदमस्ति चेत् कर्तारौ दातारौ वक्तारौ श्रोतारौ एवम् अस्ति परन्तु तादृशं नास्ति चेत् पितरौ एव औ औ भवति परन्तु इकार उकार अस्ति चेत् दीर्घं भवति एवमेव स्त्रीलिङ्गे अपि रमा रमे रमाः परन्तु रमां द्वितीया विभक्ति सर्वत्र मकारः अस्ति सर्वत्र मकारः परन्तु नपुंसकलिङ्गे तादृशं नास्ति दधि अस्ति चेत् विसर्गः नास्ति परन्तु अत्रापि दधि एव दधिं न भवति प्रथमा विभक्ति द्वितीया विभक्ति समानरूपं दधि मधु इति दधि मधु इति अस्तु अत्र स्त्रीलिङ्गे मतिं मती मतीः स्त्रीलिङ्गस्य लक्षणम् अस्ति द्वितीया विभक्ति बहुवचने विसर्गः अस्ति यथा इकारान्त अस्ति चेत् यथा इकारान्तपदम् अस्ति चेत् ईः इति भवति उकारान्तपदम् अस्ति चेत् ऊः एवं भवति यथा न यदा यदा उकारः अस्ति तदा ऊः भवति इकारः अस्ति चेत् ईः अति इति भवति आकारः आह एतदेव लक्षणं स्त्रीलिङ्गस्य लक्षणम् एवम् एवम् अस्ति एवमेव स्त्रीलिङ्गे कर्ता इति अस्ति चेत् कर्तॄन् पुल्लिङ्गस्य लक्षणं कर्तॄन् स्त्रीलिङ्गस्य लक्षणं स्वसा इति अस्ति चेत् स्वसृः इति भवति मातृः सर्वत्र विसर्गः भवति मध्ये किं भवति द्वितीया विभक्ति द्विवचनं द्वितीया विभक्ति द्विवचनं रमा अस्ति चेत् रमे रमा रमे रमाः अन्य सर्वत्र दीर्घमस्ति मतिः मती मतयः धेनुः धेनू धेनवः परन्तु दीर्घमस्ति चेत् ई अस्ति चेत् यौ भवति गौरी गौरीं गौर्यौ गौरीः गौर्यौ यौ भवति गौरीं गौर्यौ एवमेव वधू अस्ति चेत् वद्वौ वौ भवति ई अस्ति चेत् यौ ऊ अस्ति चेत् वौ एवं भवति पाठं पुनः पुनः पश्यामः चेत् मनसि तिष्ठति कण्ठस्थीकरणं मास्तु कण्ठस्थीकरणस्य आवश्यकता अपि नास्ति एवं पेटर्न् पश्यामः चेत् तत्तु पर्याप्तम् अस्तु अग्रे दधि वयं एतत् स्मरामः चेत् सम्यक् भवति वनानि इति सो अग्रे ह्रस्वं भवति वनानि एवमेव दधीनि तत्र अस्ति चेत् मूलरूपं नी भवति दधि नी मध्ये इत्युक्ते द्विवचने दधि नी मधु नी एवं भवति परन्तु बहुवचने दधीनि मधूनि नी इति ह्रस्वमस्ति नी ह्रस्वमस्ति चेत् मध्ये दधी दीर्घत्वं स्वीकरोति. सर्वत्र खलु मतीः गौरीः धेनोः ह्रस्वमस्ति चेत् अपि दीर्घं, हरि ह्रस्वमस्ति परन्तु दीर्घं हरीन्, तथा एव दधि अस्ति परन्तु दधीनि मधूनि, एवं भवति. अवगच्छन्ति वा? अस्तु, सर्वनामपदम् अपि तं तौ तान् सर्वत्र तान् कान् इति भवति. तं तौ का तं तौ तान् कं कौ कान् इति भवति. स्त्रीलिङ्गे तां ते ताः, कां के काः. नपुंसकलिङ्गे तत्ते तानि किं के कानि. एतत् वयं जानीमः. भवत् शब्दः पुल्लिङ्गे भवन्तं, भवन्तौ भवतः, अत्र नकारः नास्ति. प्रथमाविभक्ति भवान् भवन्तौ भवन्तः इति अस्ति. परन्तु द्वितीयाविभक्ति भवतः एव. द्वितीयाविभक्ति बहुवचनं, पञ्चमी षष्टि एकवचनं समानरूपं भवतः इति. भवतः नाम भवतः स्वीकरोमि, भवतः पश्यामि. सो अत्र वाक्यं दृष्ट्वा वयम् अवगन्तुं शक्नुमः द्वितीयाविभक्ति बहुवचनं वा, पञ्चमी एकं वा, षष्टि एकं वा इति. अस्तु, अग्रे भवती इति. भवती इति गौरी इव, गौरीं गौर्यौ गौरीः. अत्रापि भवतीं भवत्यौ भवतीः एवं भवति. भवतीं भवत्यौ भवतीः एवं भवति. अपि च माम् आवाम् अस्मान्, माम् आवाम् अस्मान्. युष्मत् शब्दः त्वां युवां युष्मान्, त्वां युवां युष्मान् एवम् अस्ति. अस्तु, कुत्र स्मः वयम्? एतत् दृष्टवन्तः, एतत् अपि कृतवन्तः खलु. अग्रे गच्छामः वा? अस्तु, कोष्टके विद्यमानानां शब्दानां द्वितीयाविभक्तिरूपैः रिक्तस्थानानि पूरयत. सो अत्र भक्ताः अस्ति. भक्ताः इति पुल्लिङ्गम् इति अनुमानं कुर्मः चेत् नकारः भवति. देवः भक्तान् पालयति. भक्ता भक्ता इति स्त्रीलिङ्गे अपि भवति. भक्ता भक्तः, सः भक्तः, सा भक्ता. परन्तु अत्र पुल्लिङ्गं स्त्रीलिङ्गम् इति न जानीमः चेत् पुल्लिङ्गमेव स्वीकुर्मः वयं. सो अतः भक्तान् इति अस्ति. अस्तु, गोपिका भगिनी उपरिष्टात् आगच्छामः. गोपिका भगिनी वक्तुमिच्छति, वदतु भगिनि. द्वयं करोत्.
अस्तु, सारथिः अश्वौ निबध्नाति, अश्वौ निबध्नाति एव.
अश्वौ एव, प्रथमा द्वितीया समानरूपम्. उत्तमं.
मुनयः सिद्धिं विन्दन्ति, सिद्धिं विन्दन्ति,
सिद्धिं विन्दन्ति. अस्तु, मुनयः सिद्धिं विन्दन्ति. विन्दन्ति इत्युक्ते प्राप्नोति,
प्राप्ताः,
तादृश अर्थः, तादृश अर्थः. अस्तु, अम्ब अग्रे. युद्धवार्ता. धृतराष्ट्रः
युद्धवार्ता शृणोति.
सो अत्र परिवर्तनं भवति वा न वा?
युद्धवार्तां.
उत्तमं. धृतराष्ट्रः युद्धवार्तां शृणोति. उत्तमम्. अग्रे वयं.
वयं
परिवर्तनं भवति वा भगवद्गीता वा भगवद्गीतां वा किं भवति तत्र
भगवद्गीतां पठामः
भगवद्गीतां पठामः अस्तु सम्यक् अस्तु अग्रे जयश्री भगिनि
आं भगिनि वेदवादरताः पुष्पितवाणी पुष्पितवाण्यौ पुष्पितवाण्यौ पुष्पितवाणीः प्रवदन्ति
प्रवदन्ति सो अत्र एकः अस्ति भगिनि सो अत्र एकवचनम् अस्ति चेत् एकवचनमेव किमर्थम् इत्युक्ते बालकाः मिलित्वा चलनचित्रं पश्यन्ति खलु तादृशं सो अत्र कर्मपदं कर्तृपदं बहुवचनं चेत् कर्मपदमपि बहुवचनम् इति नास्ति नास्ति अस्तु अग्रे भगिनि अर्जुनः
भगिनि अर्थं किं
वेदवादरताः सो अत्र वेदं कर्तुं निमग्नः सन्ति इत्युक्ते वेदमेव वदति तादृशजनाः पुष्पितवाणी इति एक ग्रन्थं प्रायः अहं न जानामि प्रवदन्ति इत्युक्ते वदन्ति प्रवदन्ति समान भगिनि अग्रे अर्जुनः
अर्जुनः प्रज्ञावादां भाषते
सो अत्र वादाः इति अस्ति
वदाः सो प्राज्ञा रमाः सो इट्स् प्राज्ञावादाः अर्जुनः प्राज्ञावादाः भाषते
सो अत्र वादः इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा तदेव मुख्यं वादः
वादः
वादा वा
वादा ऐ वुड् थिङ्क् वादा भगिनि
लेट्स् चेक् भगिनि
ओके
सो एतादृशसन्देहः सन्ति चेत् चेक् कुर्मः वाद इति लिखामि तत्र किम् आगच्छति इति पश्यामः वाद वध अस्ति वाद पुल्लिङ्गः एव वादान् प्रज्ञावादान् भाषते इत्युक्ते प्रज्ञां करोति प्रज्ञां अहम् एवं करोमि इति प्रज्ञा सो प्रज्ञा इत्युक्ते किं ज्ञा इत्युक्ते जानाति उदाहरणार्थं शास्त्रज्ञः इत्युक्ते शास्त्रं जानाति अतः शास्त्रज्ञः प्रज्ञा इत्युक्ते यः जानाति लैक् वैस् गै इति अहं चिन्तयामि नाट् श्योर् अस्ति वा नास्ति प्रज्ञा इत्युक्ते ए वैस् पर्सन् यः जानाति सः प्रज्ञा सो अत्र प्रज्ञावादाः इत्युक्ते यः सम्यक् जानाति तेषां वार्ताम् ते किं वदन्ति तदस्ति प्रज्ञावादाः इति
नालेजबल्
पीपल्
प्रज्ञानां वादाः वा
किं भगिनि
प्रज्ञानां वादाः इति
प्रज्ञानां वादाः प्रज्ञाः किं वदन्ति तत् अस्तु अग्रे अग्रे का एकनिमिषं पश्यामि कथम् लता भगिनी खलु अग्रे लता भगिनी अस्ति
आं भगिनि आं भगिनि कः गुरवः कः गुरून् हन्ति
उत्तमं गुरून् गुरवः इति बहुवचनं गुरून् कः गुरून् हन्ति
आसुरजनाः प्रवृत्तिं न जानन्ति
प्रवृत्तिं न जानन्ति
आसुरजनाः मीन्स् बेड् पीपल्
असुरजनाः
ओके प्रवृत्तिं न जानन्ति
जानन्ति अस्तु अग्रे सागरि भगिनि
भगिनि प्रवृत्तिः इत्युक्ते किं
वाट् एवर् हेपन् खलु प्रवृत्ति
नेचर् भगिनि देर् नेचर्
देर् नेचर्
वि डु नाट् नो द नेचर् आफ् द डिमन्स्
या प्रवृत्तं मीन्स् वाट् एवर् हेपन् प्रवृत्ति बट् प्रकृति खलु नेचर्
आं भगिनि नेचर् इस् प्रकृति a person's nature I mean here not the other nature
astu a tendency profession yeah action kimapi there are so many meanings the tendency of the person athava kim abhavat that also pravrittim na jananti pravrittim itikte their tendency iti anumanam karma astu अग्रे सो हौ एम् ऐ गोयिङ्ग् टु शो इति पश्यामि एकनिमिषम् अस्तु अग्रे
ज्ञानी शस्त्रविधिः शास्त्रविधिं न उत्सृजति
सम्यक् शास्त्रविधिं न उत्सृजति उत् सृजति इत्युक्ते किं न त्यजति इति अहं चिन्तयामि परन्तु उत् सृजति discharge, send away, cease, suspend, discontinue. So I will take this one. Discontinue. Avoid, abandon, tadrisham. Jnani, shastra vidhim na utsujati. It is said, shastra prakarena eva karyam kurvanti. Agre, Sandhya Bhagini?
Bhagini? सर्वे काङ्क्षन्ति सर्वे विजयं काङ्क्षन्ति एवरीबडी डिजायर्स विक्टरी
काङ्क्षन्ति इति इच्छन्ति सम्यक्
स्थितप्रज्ञः संहरति स्थितप्रज्ञः इन्द्रियाणि संहरति
इन्द्रियाणि एव इन्द्रियाणि
इन्द्रियाणि ओ ओके
नपुंसकलिङ्गपदं इन्द्रियाणि नपुंसकलिङ्गपदम्
बहुवचनं भगिनि
बहुवचनं
इन्द्रियम् इस् द एकवचनं
इन्द्रियम् इन्द्रिये इन्द्रियाणि
इन्द्रियाणि ओ सो इट् इस् बहुवचनं द्वितीया विलोसु इन्द्रियाणि
इन्द्रियाणि एव अस्तु
स्थितप्रज्ञः इन्द्रियाणि संहरति
संहरति अस्तु अग्रे सविता भगिनि
आं भगिनि 11th वन् भगिनि
न 13th भगिनि
13th कृष्णः अर्जुनस्य मोहयति कृष्णः अर्जुनस्य प्रज्ञा कृष्णः अर्जुनस्य प्रज्ञां भगिनि एकवचनं
प्रज्ञामेव प्रज्ञां
कृष्ण अर्जुनस्य प्रज्ञां मोहयति
मोहयति
माधवः पाण्डवश्च शङ्खौ द्विवचनात् माधवः पाण्डवस्य शङ्खौ शङ्खं प्रद माधवः पाण्डवस्य शङ्खं प्रथमतुः
प्रथमाभि शङ्खः शङ्खौ शङ्खाः
शङ्खं शङ्खौ शङ्खान्
अत्र शङ्खौ तथा एव तिष्ठति खलु तथा एव तिष्ठति
आमाम् आं भगिनि माधवः पाण्डवस्य शङ्खौ प्रदद्मतु
धन्यवादः अस्तु माधवः एकनिमिषं भगिनि माधवः पाण्डवः च पाण्डवः च विसर्गस्य स्थाने
पाण्डवः प्लस् च पाण्डवश्च
पाण्डवः च माधवः पाण्डवः च शङ्खौ
प्रदद्मतु कृष्ण अर्जुनस्य प्रज्ञां मोहयति
मोहयति इस् अ निच् प्रयोगः मोहते मोहयति प्रज्ञाम् इत्युक्ते तस्य नालेज् मोहयति हि इन्स्पायर्ड् इति अस्तु अग्रे पुनः गोपिका भगिनी किमपि उक्तवती खलु किम्
आं भगिनि स्थितप्रज्ञः इत्युक्ते शान्तस्वभावी वा इति
स्थित इत्युक्ते लैक् एकदृष्ट्या दट् इस् द पर्सन् हू वाण्ट्स् ओन्ली नालेज्
भगिनि
एकदृष्ट्या फोकस्ड्
ओ अस्तु स्थितदेवः इत्युक्ते किं भवति
स्थितदेवः इत्युक्ते द देवः हू वास् देर्
अस्तु भगिनि
अस्तु अग्रे गोपिका भगिनि
सेनापतिः सेनां वीक्षते
सेनां वीक्षते सेना इति एकवचनं सेनां वीक्षते वीक्षते इत्युक्ते
पश्यति
पश्यति क्षम्यताम् अग्रे
सात्विकाः देवाः देवान् यजन्ते
यजन्ते यजन्ते इत्युक्ते
न जानामि भगिनि
सात्विकाः देवान्
यजन्ते प्रे
प्रे वा अस्तु प्रे यच्छन्ते इव
आं भगिनि कोष्ठे अस्ति
सम्यक् अस्तु उत्तमम् अग्रे अम्ब अज्ञाः इत्युक्ते ये न जानन्ति
अज्ञान् उभौ सेवते
अज्ञाः अत्र विषयाः इति अस्ति नम्बर् 17 विषयः इति पुल्लिङ्गपदं सो अतः रूपं कथं भवति अज्ञाः
विषयाः
पुल्लिङ्गः अस्ति चेत् नकारः भवति वा न वा अथवा तथा विसर्गः अस्ति वा नपुंसकलिङ्गम् अस्ति चेत् नी भवति सो अत्र पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा विषयः
विषयान्
सम्यक् विषयान् विषयान् उपसेवन्ते उपसेवन्ते सम्यक् उपसेवन्ते इत्युक्ते टु इन्डल्जिन् इति उपसेवन्ते इत्युक्ते पठन्ति इति साधारणभाषया पठन्ति अज्ञाः विषयान् पठन्ति अथवा जानन्ति इति अस्तु जय अस्तु अग्रिममपि करोतु अम्ब
सङ्गघोषः व्यनुनादयति शङ्खघोषः
ईकारान्तपदम् एकवचनम् एकवचनम् अस्ति चेत् लक्षणं किम् एकवचनस्य लक्षणम्
पृथ्वीः
एकवचनं मकारः भवति नपुंसकलिङ्गे तथा न भवति परन्तु पुल्लिङ्गे स्त्रीलिङ्गे सर्वत्र मकारः भवति पृथ्वीं सम्यक् शङ्ख सो अत्र वि इति उपसर्गः अस्ति अनु अपि उपसर्गः अस्ति व्यनु नादयति इति इत्युक्ते लैक् रेवर्बरेटेड् इति शङ्खघोषः पृथिवीम् अनुनादयति व्यनुनादयति अनुनादयति अनन्तरं व्यनुनादयति समानार्थपदम् इति चिन्तयामि धन्यवादः अम्ब अस्तु जयश्री भगिनी अग्रे
आं भगिनि त्वं कुरवः कुरवः गुरु कुरून्
सम्यक् कुरून्
कुरून् कुरून् पश्य वयं हरीम् उपास्महे
हरिम् उपास्महे कुरून् पश्य सम्यक् सम्यक् अस्तु
भगिनि मम एकः प्रश्नः अत्र कुरः इति मूलपदं वा अत्र
न कुरु
कुरु दीर्घं वा
कुरुः गुरु गुरवः कुरुः कुरु कुरवः
ओ अस्तु कुरवः इति डौ इति चिन्तितवती
न न न
अत्र बहुवचने अस्ति
न न आं बहुवचने एव अस्ति अत्र कुरुः कुरु अस्ति चेत् द्विवचनम् अत्र कुरु नास्ति कुरवः एव गुरवः इव
कुरव इति कोष्ठे डौ इति आसीत् अतः तदेव मूलपदम् इति चिन्तितवती
किं भगिनि प्रश्नतः
कुरव इति डौ इति आसीत् भगिनि कोष्ठे अतः मम प्रश्नः जातः
अस्तु तादृशं नास्ति इति चिन्तयामि सो अत्र युद्धसमये किं किम् अस्ति तत् स्वीकृत्य एव नामानि सन्ति अत्र.
अस्तु
अस्तु
भगिनि, कुरु इस् प्रोबब्लि द कुरु वंश, रैट्? दट्स् वाट्.
आम् तदेव अहं चिन्तयामि, तादृशमेव अहं चिन्तयामि.
Looking at this, it looks like everything is from the first chapter of Bhagavad Gita. So
nischayana, nischayana. Harim upasmahe abhavat. Astu agre ka asti Sagari bhagini va Lata bhagini va? I lost count.
Aham vadami va bhagini.
Astu bhagini vadat Lata bhagini.
Vayam ओके पितृव्रताः पितरः यान्ति, पितरं यान्ति.
सो पिता, पितरौ, पितरः. पितरः इति बहुवचनं, पितरः.
ओ पितरः, ओके. पितॄन्,
पितॄन्, सम्यक्, पितॄन् यान्ति.
पितॄन् यान्ति. दुर्योधनः डाश् दर्शयति चमूः. चमूः इस् अगेन् प्लूरल् भगिनि.
चमूः अहं सम्यक् न जानामि. प्रायः चमूः, चमूः, आम् आम् एवमेव. आम्
दुर्योधनः
चमूः एव, चमूः,
चमूः,
चमूः दर्शयति.
चमूः दर्शयति,
शोयिङ्ग् दि आर्मीस् इति.
ओके
अस्तु अग्रे. एवम् एवमस्ति. सर्वनामपदानां द्वितीया विभक्तिप्रयोगः सः.
क्षम्यताम् अत्र अन्तिमवाक्यः वाक्यं दुर्योधनः चमूम् इति, चमूं दर्शयति इति उत्तरम् अस्ति भगिनि.
सो अत्र चमूः इति एकवचनं वा?
आं भगिनि, तदेव अत्र दत्तं.
प्रायः भगिनि, अहं सम्यक् न जानामि इति उक्तवती. अहं चमूः इति एकवचनम् इति चिन्तयामि.
इत्युक्ते स्वर्गः इति अर्थः अस्ति?
न न न, चमूः इत्युक्ते सेना इव, सेना. स्वर्गः न, सेना.
ओ अस्तु, अत्र चमूम् इति उत्तरं दत्तं.
प्रायः भगिनि, चमूम् इस् प्राबब्लि रैट्. चमूम् इस् रैट् प्राबब्लि. चमूः इति एकवचनमेव. तत् अस्तु. ऐ डोण्ट् वाण्ट् टु मिस् द पेज्. अस्तु अस्तु अस्तु, तर्हि चमूम् इति एकवचनमेव. अस्तु, चमूः इति अस्तु. सो अत्र एवम् एवम् अस्ति. सः अस्ति चेत् तं भवति, खलु? सः तौ ते, तं तौ तान्. सो अत्र एकवचनं सर्वत्र एवम् अस्ति. तं, तान्, एतम्, एताम्, मां, भवन्तं, भवती, त्वां. सर्वे जानन्ति वा एतत्, एतानि रूपाणि? तं, तान्, एतम्, एतां, मां, भवन्तं, भवती, त्वाम् इति. अस्तु अग्रे द्विवचनं पुल्लिङ्गे तौ, एतौ. प्रथमं पुल्लिङ्गं वदामि. तौ, एतौ, भवन्तौ, एवं भवति. तौ, एतौ, भवन्तौ. पुल्लिङ्गे तं, एतं, भवन्तं. सर्वत्र तं, तं, तम् इति अस्ति. एतादृश पेटर्न् पश्यन्तु, सम्यक् भवति. स्त्रीलिङ्ग अस्ति, अस्तु, बहुवचने तान्, एतान्, परन्तु भवतः भिन्नरूपं भवतः भवन्तः इति प्रथमाविभक्तिरूपं परन्तु द्वितीयाविभक्तिरूपं भवतः इति अस्ति. नकारः नास्ति, नकारः नास्ति भवतः इति पदे. अग्रे किम् अस्ति स्त्रीलिङ्ग्?
तत्र षष्टिविभक्ति एकवचनमपि भवतः?
आं भगिनि, आम्, पञ्चमी षष्टि एकवचनम् अपि च द्वितीया बहुवचनं समानरूपाणि. सो अतः वाक्यं दृष्ट्वा एव वक्तुं शक्नुमः द्वितीया वा पञ्चमी वा षष्टि वा इति. भवतः नाम किं? भवतः अहं स्वीकरोमि, भवतः पश्यामि, समान समानरूपाणि.
धन्यवादः.
धन्यवादः. अस्तु अग्रे किम् अस्ति स्त्रीलिङ्गं पश्यामः. सर्वत्र ताम् एताम् इति अस्ति. भवती इति स्त्रीलिङ्गपदम्, अतः भवतीम् इति भवति. अहम् एवं करोमि, भवतीम् इति भवति. द्विवचनं ते भवति खलु, ते एते, परन्तु भवती अस्ति भवत्यौ. प्रथमाविभक्ति द्विवचनमपि तथा एव, भवती भवत्यौ भवत्यः एवम् अस्ति. सो अत्र सर्वत्र द्वितीयाविभक्ति प्रथमाविभक्ति द्विवचनं समानं, तौ तौ, ते ते, एतौ एतौ, समानमस्ति, सर्वत्र समानमस्ति. अस्तु, अहम् इति वदामः चेत् अहम् आवां वयं खलु, आवाम् अत्रापि आवाम् आवामेव, माम् आवाम् अस्मान्, माम् आवाम् अस्मान्, द्विवचनं सर्वत्र समानं. त्वं युवां यूयम्, परन्तु त्वम् इति त्वां भवति, अहं माम् अस्ति. सो तथा एव त्वां भवति, मां त्वाम् इति, आवां युवाम्, आवां युवाम्, अस्मान् युष्मान्, अस्मान् युष्मान्, सर्वत्र मान् आन् आन् दीर्घत्वम् अस्ति. आवां वां युवां, मां त्वाम्, अस्मान् युष्मान्, एतादृश पाटर्न् दर्शय पश्यन्तु. दर्शितमस्ति, सम्यक् सम्यक् दर्शितमस्ति. अत्र स्त्रीलिङ्गे बहुवचने सर्वत्र विसर्गः अस्ति. ताः एताः, भवती भवतीः, अत्रापि तादृशनियमः अस्ति. पुल्लिङ्गे सर्वत्र नकारः यथा अस्ति तथा अत्रापि अस्ति. अस्मान् युष्मान् इव. इदानीं नपुंसकलिङ्गं, नपुंसकलिङ्गं तत्तेतानि, तत्तेतानि एव, एतत्ते एतानि, अत्रापि एतत्ते एतानि, नपुंसकलिङ्गसमानं. इदानीं कः, कः अस्ति कम्, कं कौ कान्, अत्रापि कं कौ कौ समानं, कं कौ कान्, अत्रापि कान्, कं कौ कान्. का अस्ति चेत् काम्, के के समानं, काम् सर्वत्र मकारः अस्ति एकवचने, सर्वत्र मकारः अस्ति. के के काः विसर्गः अस्ति. इदानीं किं शब्दः समानं, किं के कानि, किं के कानि भिन्नरूपाणि. एवम् अत्र अपि नपुंसकलिङ्गे सर्वं सर्वे सर्वाणि, सर्वं सर्वे सर्वाणि, वयं पूर्वमेव जानीमः. अत्र सर्वः सर्वं, पुल्लिङ्गे सर्वं, स्त्रीलिङ्गे सर्वां, सर्वौ वौ भवति सर्वान्, अत्र सर्वाः, सर्वे सर्वाः, स्त्रीलिङ्गे सर्वाः इति अस्ति. अस्तु, प्रश्नः वा? अस्तु, नास्ति इति चिन्तयामि. अस्तु, अन्ते का उक्तवती? लता भगिनी खलु, सागरी भगिनी. एतानि
वाक्यानि उच्चैः पठत. पितामहः तम् आह्वयति.
तम् इति पदं भगिनि? तम्
तं पुल्लिङ्गं, सः
पुल्लिङ्ग, अतः सः इति तम् अभवत्. पितामहः तम् आह्वयति, सः अत्र अस्ति, पितामहः तम् आह्वयति. अस्तु, अग्रिममपि.
धर्मराजः तं वदति.
अत्रापि समानं खलु, तम् सो अत्र अनुस्वारः अस्ति. किमर्थम् अनुस्वारः अस्ति अत्र? व्यञ्जनमस्ति,
स्वरः.
सो अहं भगिनी, सागरी भगिनी एव वदतु. धन्यवादः भगिनी.
व्यञ्जनमस्ति खलु भगिनी?
सम्यक् सम्यक्. सो व्यञ्जनमस्ति चेत् अनुस्वारः भवति. सो अत्र उकारः अस्ति, अग्रे व्यञ्जनमस्ति चेत् मकारः अनुस्वारः भवति. स्वरः अस्ति चेत् मकारः एव तिष्ठति. अत्र तम् इति मकारम् अस्ति, मकारः अस्ति, अत्र अनुस्वारः अस्ति. धर्मराजः तं वदति इति. धन्यवादः भगिनि. अस्तु, सन्ध्या भगिनि अग्रे.
हिडिम्बा कं मारयति?
कम् इति प्रथमाविभक्तिरूपं किं? कम् इति अस्ति चेत्
कः?
कः, उत्तमं. कः, कः कम् अभवत्. अस्तु, नम्बर् फोर् अग्रे अस्ति, परन्तु एतत् करोतु, एतदेव करोतु.
धर्मः अस्मान् रक्षति. अस्मान् अहम्
अहम् इति एकवचनं,
प्रथमविभक्ति एकवचनम्.
अत्र अहं
वयं वयं भगिनि
वयं वयं वयं
वयं रक्षति,
वयं रक्षति. सम्यक्. सविता भगिनि अग्रे.
अहं तानि जन्माणि जानामि. तत्ते तानि,
तत्ते तानि.
अहं तत् जन्माणि जानामि.
न, तानि एव,
तानि एव,
तानि एव, तानि तत्येतानि. सो तानि अस्ति चेत् तानि एव. अहं तानि जन्माणि जानामि. अस्तु,
आवां युवां सम्यक् जानीवः. अहम् आवां वयम्. आवां युवां सम्यक् जानीवः. वयम् अहम् आवां वयम्
अहम् अहमाकं त्वं त्वं
आवां वयं त्वं युवां यूयम्
किम् अस्ति? अहम् आवाम्
आवां वयं
त्वाम्
अहम् आवां वयम्
वेरि इण्ट्रेस्टिङ्ग् सेण्टेन्स् खलु अत्र.
ऐम् क्लूलेस् भगिनि.
सो अत्र, सो अत्र जानीवः इति अस्ति चेत् कर्ता किम्? आवां जानीवः सम्यक् वा, युवां जानीवः सम्यक् वा?
अहं जानीवः आवां जानीमः भगिनि
न आवाम् इति अस्ति जानीवः इति अस्ति चेत् आवां जानीवः वा युवां जानीवः वा कर्ता किम् अत्र
आवां जानीवः युवां जानीवः
अस्तु आवाम् आवां खलु अहं जानामि आवां जानीवः वयं
जानीमः
जानीमः इति भवति खलु अहं जानामि आवां जानीवः वयं जानीमः अतः अवमेव कर्ता सो अतः युवाम् इति कर्मपदम् right we know you iti arthe so atra yuvam iti prathama vibhakti api asti ditiya vibhakti api asti
so
yeah so the sentence is like this we know you like that आवाम् इति प्रथमा विभक्ति युवाम् इति द्वितीया विभक्ति वेरि इण्ट्रेस्टिङ्ग् सेण्टेन्स् खलु नथिङ्ग् चेञ्जस् इट्स् लैक् सेयिङ्ग् ते ते एते एते नो इट्स् सेम् थिङ्ग् एव्रिथिङ्ग् इस् द सेम् वेरि इण्ट्रेस्टिङ्ग् सेण्टेन्स् सो अत्र आवाम् युवां सम्यक् जानीवः वि नो बोत् आफ् अस् नो बोत् आफ् यू वेरि वेल् इति आवां युवां सम्यक् जानीमः अस्तु गोपिका भगिनी अग्रे सो अत्र युवाम् अस्ति चेत् क्रियापदं कथं भवति बिकास् आफ् जानीवः इट् केन् ओन्लि बि आवां दट्स् अ वेरि गुड् क्वश्चन् त्वम् अस्ति चेत् जानासि भवति त्वं जानासि एण्ड् देन्
युवाम् आवां सम्यक् जानासि
सो युवां मीन् जानीत जानीतः एण्ड् देन् जानीत इफ् इट् वास् जानीतः देन् इट् इस् युवाम् आवां जानीतः दट् मीन्स् यु नो अस् अस्तु गोपिका भगिनी अग्रे
सः मां वदति माम् अहम्
अस्तु
मानवः तां सिद्धिं विन्दति सा तां सा इति
अत्र सिद्धिः इति सा तां सिद्धिं विन्दति अस्तु प्राप्नोति इति अर्थे अस्तु अम्ब
एषा एतौ जानाति
एषः एतौ एते एषः सो अत्र एवम् अस्ति खलु एषः एतौ एते इति प्रथमाविभक्तिरूपं द्वितीयाविभक्तिरूपम् एतम् एतौ एतान् एवमस्ति एतम् एतौ एतान् एतम् एतौ एतौ समानमस्ति सो अतः सो अत्र क्लू किम् अस्ति चेत् द्विवचनम् अस्ति चेत् इफ् इट् इस्
भगिनि एषा श्रीलिङ्गं खलु
एषा जानाति इट् गोस् लैक् देट् भगिनि बट्
एतौ ओके
सो अत्र द्विवचनम् अस्ति चेत् समानं प्रथमा विभक्ति द्वितीया विभक्ति समानं सो अत्र एतौ द्वितीया विभक्ति अस्ति चेत् प्रथमा विभक्ति अपि एतौ एव हलो अस्तु अग्रे करोतु एतत् एतत् कृत्वा समापयामि एतान् अस्ति चेत् कथं भवति एतान् एतान् अस्ति प्रथमा विभक्ति किम्
एषः
न एषः इति अम्ब एव वदतु कृपया सो अत्र एतान् इति अस्ति बहुवचनम् एतान् प्रथमा विभक्ति किं भवति एषः एतौ एते सो अत्र अत्र बहुवचनं किम् एषः एतौ एते
एष
न एषः इति एकवचनं एषः अस्ति चेत् एतं भवति एतौ अस्ति चेत् एतौ एतान् अस्ति चेत् किं भवति एतान् इति बहुवचनं खलु एतान्
एतान् बहुवचनं
बहुवचनं सो अतः एषः एतौ एते एषः एकवचनम् एतौ द्विवचनम् एते बहुवचनं खलु सो अत्र एतान् अस्ति चेत्
किम्
एते एते सम्यक् धन्यवादः जयश्री भगिनि अग्रे
आं भगिनि कृपया आवां कथयतु आवाम् अपि
आवामेव सम्यक्
आवामेव
वचनमस्ति चेत् सम्यक् एव अस्तु सर्वे
सर्वे एतां पश्यन्तु एतां एषा
एषा उत्तमं भगिनि एषा लता भगिनी अग्रे
आं भगिनि कृष्णः युष्मान् रक्षतु कृष्णः युष्मान् सो
त्वं युवां यूय
त्वं युवां यूयं यूयं बहुवचनं
यूयं सम्यक्
अयसिः कां गतिं गच्छति कां
का अस्ति उत्तमम् अग्रे सागरि भगिनि धन्यवादः भगिनि
आं भगिनि ग्रद्रः तान् शवान् खादति तान्
ते
कः मम विभूतिं जानाति
अत्र मम इति अस्ति सो अहं न जानामि सो इट् इस् सो सपोसिङ्ग् इट् इस् मा सो मम विभूतिम् अस्ति अत्र द्वितीया विभक्तिरूपं नास्ति अग्रिमवर्गे इतः आरम्भं कुर्मः अस्तु अस्तु इदानीं समापयामः किञ्चित् विलम्बः अभवत् क्षम्यताम् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः